पञ्चमोऽध्याय अर्जुनायुवाच संन्यासकर्मणां कृष्ण पुनर्युगञ्च शंसी जच्छ्रेयमितयूरेकं तन्मे ब्रूहि सुनिश्चितं श्रीभगवानुवाच संन्यासकर्मयुगश्च निःश्रेयसकराबुभौ तयोस्तु कर्मसंन्यासाद् कर्मयोगो विशिष्यते ज्ञेयश्च नित्यसंन्यासी जूनदृष्टि न काङ्क्षति निर्दन्दो हि महाबाहो सुखं बन्धात् प्रमुच्यते सङ्ख्ययोगौ पृथक् बाला प्रवदन्ति न पण्डिता एकमप्यस्थितः सम्माग उभयोर्विन्दते फलं यत् साङ्ख्यैः प्राप्यते स्थानं तदयोगैरपि गम्यते एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति संन्यासस्तु महाबाहो दुःखमाप्तु मजोगतः योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्वविद् पश्यन् शृण्वन् स्पृशन् जिघ्रन् नश्नन् गच्छन् स्वपन् शसन् प्रलपन् विसृजन् गृह्णन् नुन्मीषन् निमिषन्नपि इन्द्रियानिन्द्रियार्थेषु वर्तन्त इति धारयन् ब्रह्माण्याध्याय कर्माणि सङ्गं त्यक्त्वा करोति यः लिप्यते न स पापेन पद्मपत्रमिबम्भसा कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि योगिनः कर्म कुर्वन्ति स्वङ्गं त्वक्तात्मशुद्धये युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् अयुक्तः कामकारेण फले शक्तो निबद्धते सर्वकर्माणि मनसा संनश्यास्ते सुखं वशी न बद्धारि पुरे देहि नैव कुर्वन्न कारयन् न करोति त्वं न कर्माणि लोकस्य सृजति प्रभो न कर्म फलसंयोगं स्वभावस्तु प्रवर्तते न दत्ते कस्यचित् पापं न चैव सुकृतं विभो अज्ञानेनावृतं ज्ञानं तेन मुज्झन्ति जन्तवः ज्ञानेन तु तदज्ञानं येषां नाशितमात्मना तेषामादित्तवज्ज्ञानं प्रकाशयति तत्परम् तद्बुद्धया स्तदात्माना स्तन्निष्ठा स्तत्परायणा गच्छन्त पुनरावृत्तिं ज्ञाननिर्धूतकलमशः विद्याविनयसम्पन्ने ब्राह्मणे गविहस्तिनि शूरी चैव स्वपाके च पण्डितः समदर्शिनः यैव तैर्जितः सर्गो येषं साम्ये स्थितं मनः निर्दोषं हि समं ब्रह्मा तस्माद्ब्रह्मणि ते स्थितः न प्रहिष्येत् प्रियं प्राप्य बोधविजेत् प्राप चाप्रियं स्थिरबुद्धिर्रसङ्गमूढो ब्रह्मवीरब्रह्मणि स्थितः वाज्यस्पर्शेष्व शक्तात्मा बिन्दात्यात्मनि यः सुखं स ब्रह्मयोगयुक्तात्मा सुखमक्ष्यज्यमश्नुते ये हि संस्पर्शया भोगा दुःखयो नय एव ते आद्यन्तवन्तः कौन्तेय नातेषु रमते बुध शक्नोति हैव यः सोढुं प्राक्शरीरविमोक्षणात् कामक्रोधोद्भवं वेगं सा युक्तः सा सुखी नरः कौन्तराराम तथान्तर्ज्योतिरेव यः सा योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति लभन्ते ब्रह्मनिर्वाणमिषयक्षीणकलमषा छिन्नद्वैधा जतात्मानः सर्वभूतहिते रतः कामक्रोधाभियुक्तानां यतीनां यतचेतसाम् अभितु ब्रह्मनिर्वाणं वर्तते विदितात्मनं स्पर्शन कृत्वा बहिर्बाह्यं चक्षुश्चैवन्तरे प्राणापानौ समौ कृत्वा नाशभ्यन्तरचारिणौ जतीन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणा विगतिच्छा भयक्रोधो यः सदा मुक्त एव स भोक्तारं यज्ञतपसं सर्वलोकामहेश्वरं सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासु उपनिषदसु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम पञ्चमोऽध्यायः।